इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भारतेन कनाडायाः ब्रैम्प्टन स्थे ओंटारियो हिंदू मंदिरे आतिवादिभिः पृथक्तावादिभिः च कृतं हिंसाचरणमाधृत्य चिंता प्रकटितास्ति। आक्रमणं प्रति स्वीय प्रतिक्रियायां प्रधानमन्त्रिणा नरेन्द्रमोदिना एकस्मिन् सामाजिक सञ्जालपटलीय सन्देशे उक्तं यत् देशस्य राजनयिकान् प्रति एतादृशानि कृत्यानि न समीचीनानि। एतादृशैः हिंसाकर्मिभिः देशस्य संकल्पः कदापि दुर्बलः न भविष्यति इति सः प्रतिपादितवान्। श्रीमोदी कनाडा सर्वकारेण न्यायं सुनिश्चित्य विधिपूर्ण शासनस्य पालनं कर्तुम् आवाहनं कृतवान्। विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयशवालः प्रोक्तवान् यत् भारतं कनाडा सर्वकारम् अवोचत् यत् तेन सर्वाण्यपि पूजनस्थलानि एतादृशैः आक्रमणैः रक्षितानि भवेयुः। भारतेन आशा प्रकटितास्ति यत् कनाडा सर्वकारेण हिंसक प्रकरणे सम्मिलितान् जनान् विरुध्य न्यायाचरणं विधातव्यम्। ओटावा नगरे भारतीयोच्चायोगेन ओंटारियो नगरे वाणिज्य दूतावास शिविरात् बहिः हिंसक व्यवधानम् आधृत्य निराशा व्यक्तीकृता। आयोगेन कथितं यत् ब्रैम्प्टन इत्यत्र हिंदू सभामन्दिरेण सह वाणिज्य दूतावास शिविरात् बहिः भारतरोधी तत्त्वैः हिंसक व्यवधानं विहितम्। राष्ट्रपति द्रौपदी मुर्मू अद्य नवदिल्ल्याम् आयोजिते प्रथमे एशियाई बौद्ध शिखर सम्मेलने भागं भजिष्यति। अद्यारभ्य द्विदिनात्मकम् अयं शिखर सम्मेलनं बौद्धधर्मस्य समृद्ध संस्कृतेः उत्सवम् आमानयति। अस्मिन् सम्मेलने महाद्वीपस्य सम्माननीयाः संघनेतारः विद्वांसः साधकाः चापि उपस्थिताः भविष्यन्ति। अद्य अमेरिका देशस्य नव राष्ट्रपति निर्वाचनाय मतदानं भविष्यति। रिपब्लिकन दलस्य प्रत्याशी पूर्व राष्ट्रपतिः डोनाल्ड ट्रम्पः, डेमोक्रेटिक दलस्य प्रत्याशी उपराष्ट्रपतिः च कमला हैरिस शीर्षपदाय नैर्वाचनिक समराङ्गणे स्तः। यतोहि देशे बहुविध समयक्षेत्राणि सन्ति, अतः अमेरिकादेशे अद्य भारतीय मानक समयानुसारं सायं सार्ध पञ्चवादनात् सायं सार्ध सप्तवादनयोर्मध्ये मतदानं आरभ्यते। श्वः भारतीय समयानुसारं प्रातः सार्ध पञ्चवादनतः सार्ध नववादनयोर्मध्ये देशस्य अधिकांश मतदान केन्द्राणि पिहितानि भविष्यन्ति। केरल पंजाब उत्तरप्रदेशेषु च चतुर्दश विधानसभाक्षेत्रेषु उपनिर्वाचनस्य तिथिः परिवर्तिता। निर्वाचनायोगेन तिथिपरिवर्तनस्य घोषणापि कृता। अधुना नवम्बर मासस्य त्रयोदश दिनांकस्य स्थाने अस्मिन् मासे विंशतिः दिनांके एव मतदानं भविष्यति। मतानां गणना पूर्ववत् एव नवम्बर मासस्य त्रयोविंशतिः दिनांके एव भविष्यति। आयोगेन तस्मिन् दिने बृहदस्तरे सामाजिक सांस्कृतिक धार्मिक संगतिकारणात् परिवर्तनं कृतम्। सर्वकारेण उक्तं यत् प्रधानमन्त्री विश्वकर्मा योजनायाः आरम्भात् 2.5 कोटितोप्यधिकाः आवेदनपत्राणि प्राप्तानि सन्ति। एतेषु 20 लक्षाधिकाः आवेदकाः त्रिचरणीय सत्यापनप्रक्रियायाः अनन्तरं सफलतया पञ्जीकरणं कृतवन्तः। सूक्ष्म लघु मध्यम उद्यम मन्त्रालयेन उक्तं यत् गतवर्षस्य सितम्बर मासे आरब्धायाः योजनायाम् उल्लेखनीय रुचिः दृश्यते। मोसेल ओपन टेनिस क्रीडायां भारतस्य ऋत्विक चौधरी बोल्लीपाली तस्य सहक्रीडकः पुर्तगालस्य फ्रांसिस्को कैब्रालः च फ्रांस देशे मोशेल ओपन क्रीडायाः पुरुषयुगल क्वार्टर फाइनल इति प्राग्युपान्त्य चक्रीय क्रीडायां प्रविष्टौ इति वार्ताः।